आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। अशीतितम स्वतंत्रता पर्वणः पूर्व संध्यायाम् अमृतेन सम्भाषणेन राष्ट्रमभिसंबोधयन्ती राष्ट्रपति पदासीना द्रौपदी मुर्मुः प्राह यत् जागतिक अशान्तेः युद्ध विभीषिकायाश्च तमसि अपि भारतीया अर्थव्यवस्था उज्ज्वल नक्षत्रवत् तीव्रतमगत्या समेधते। राष्ट्रपतिना प्रोदीरितं यत् भारतस्य आर्थिक संवृद्धिः वैश्विक संवृद्धिमतिक्रम्य द्विगुणाधिकं यावद् वर्तते।
Even in such trying circumstances, our economy is moving ahead as the fastest growing major economy in the world. According to economic projections, the growth rate of the Indian economy is expected to be more than twice the average of global growth rate. Atmanirbhar Bharat Abhiyan has further strengthened the foundation of our economic progress and national security.
राष्ट्रपतिना प्रतिपादितं यत् राष्ट्रस्य नक्सलोन्मूलनम् एका ऐतिहासिकी सफलता अस्ति। सा प्रावोचत् यत् यानि क्षेत्राणि पूर्वं नक्सलातंकेन प्रभावितानि आसन् तेषु क्षेत्रेषु इदानीम् उत्साहसन्ततिः विकासप्रवाहश्च दरीदृश्यते।
भारत को नक्सल मुक्त बनाना एक बड़ी उपलब्धि है। आप नक्सल प्रभावित क्षेत्र में उत्साह का वातावरण है तथा विकास के सर्वस्पर्शी धारा प्रवाहित हो रही है। बस्तर ओलंपिक्स में खिलाड़ियों ने, बस्तर पंडुम में कलाकारों ने तथा इन आयोजनों में दर्शकों ने भारी संख्या में हिस्सा लिया।
राष्ट्रपतिना प्रोक्तम यत् छात्रवृन्दः राष्ट्र भविष्यस्य मुख्य शिल्पी वर्गः अस्ति। परीक्षा व्यवस्थायाः परिष्काराय च शासनं प्रतिश्रुतम् अस्ति। राष्ट्रपतेः अनुसारं भारतस्य 65% युवजनसंख्या राष्ट्रस्य मुख्य शक्तिः अस्ति या स्वप्रयासैः उद्यमितायाः नूतनान् मार्गान् रचयति। अनेन भारतं 47.2% वर्षं यावत् विकसित भारत निर्माणस्य स्वप्नं साक्षात्कर्तुम् अग्रसरति। उपराष्ट्रपतेः सीपी राधाकृष्णन् अवोचत् यत् राष्ट्रपतेः स्वतंत्रता दिवसस्य पूर्व संध्यायाम् एकः शक्तियुतः प्रेरणादायी च सन्देशः दत्तः, यः एकस्य आत्मविश्वासपूर्णस्य प्रवर्धमानस्य जीवन्त भारतस्य च आकांक्षाः प्रकटीकरोति। सामाजिकान्तर्जालीय स्वीय सन्देशे राधाकृष्णन् इत्यनेन प्रोदीरितं यत् राष्ट्रपतेः सम्बोधने यूनाम् आशाः, नारीशक्तेः योगदानं, देशस्य आर्थिक प्रगतिं च संस्पृश्य एकस्य सशक्तस्य समृद्धस्य च राष्ट्रस्य व्यापकं दर्शनम् उपस्थापितम्। तेन अग्रे प्रतिपादितं यत् एते रवाः राष्ट्रयज्ञे नागरिक आहुत्यै दिव्यम् आह्वानं सन्ति। देशः अद्य अशीतितमं स्वातन्त्र्यदिवसम् आचरति। प्रधानमन्त्री नरेन्द्रमोदी दिल्ल्याः ऐतिहासिके रक्तदुर्गे समारोहस्यास्य नेतृत्वं करोति। समारोहस्य अन्तर्गतं भारतीय वायुसेनायाः द्वे MI-17 इत्येते विमाने आयोजनस्थले पुष्पवृष्टिं करिष्यतः। राष्ट्रियध्वजारोहणं 21 भुशुण्डिकानां निनादेन सह समन्वितं भविष्यति। पुष्पवृष्टेः अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी रक्तदुर्गस्य प्राचीरात् राष्ट्रं सम्बोधयिष्यति। प्रशासनेन दूरदर्शनवाहिनीनां कृते 12-निमेषपरिमितां विज्ञापनावधिसीमां निरसितुं निर्णयः कृतः। सूचनाप्रसारणमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् केबल टेलीविजन नेटवर्क नियम 1994 इत्यस्मिन् संशोधनस्य राजपत्रे अधिसूचना प्रकाशनस्य दिनांकात् एषः निर्णयः प्रवर्तयिष्यते। मन्त्रालयेन उक्तं यत् दूरदर्शन प्रसारण क्षेत्रे घटितानां परिवर्तनानां दृष्ट्या विज्ञापनावधि सम्बद्धानां प्रावधानानां पुनरावलोकनस्य आवश्यकता अनुभूता इति वार्ताः।